हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन् नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवते धीनाम वित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतयानो रुद्रमृणया या ते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुर्वाहिगुम् श्रीपुरुषम् जगते शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् मध्यवोच जदि वक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम् भयम् सर्वाश्च यातु धान्यः असो यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये श्रेमागुम् रुद्रा अभितो दिक्षश्रता सहस्रशो वैशागुम् हेड इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैलम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीलुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्निर्जाम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्यधनुस्वगुम् सहस्राक्षशतेषु धे निशीर्य शल्यानामुका शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुदस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिन् जलाय त्विषीमते पथीनाम् पतये नमो नमो बभ्लुषाय विव्याधिनेनाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नम कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मध्यो धन्वाविभ्यश्च वो नमो नम आधन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम् अतेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविभिष्टाय च नमो मीनुष्टमाय चेशुमते च नमो रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोगस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽव्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उद्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुलताय च नमः शूराय चावविन्धते च नमो वर्मिणे च वरोतिने च नमो भिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्णवे च प्रमुषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युद्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्त्याय च कोल्याय च नमः भार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः शष्प्याय च भेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इदिन्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च सौर्म्याय च नमः पन्याय च पर्णशद्याय च नमो पगुणमानाय च विघ्नते च नमः आखिलते च प्रखिलते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धजस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भे मा रोमो येषाम् किञ्च नाम मत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपद्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननातुरम् मृळानो रुद्रोदनो मयस्कृते क्षयद्वीराय नमसा विदेमते यच्चम् च योऽस्य मनुरायजे पिता तदश्याम तव रुद्र प्रणीतो मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रमामिदो वदेन् हविष्मन्तो नमसा विधेमते आरात्ते गोग्न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अदि च देव प्रोयदा च नः शर्म यच्च द्विबर्हाः सुहृश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडा च ऋत्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणत्वपरित्वेषस्य दुर्मदिनगायोः अवस्थिरामगवद्भ्यस्तनुष्वमीव स्तोकाय तनयाय मृणया मीरुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निदाय कृत्य वसान आचर पिनाकम् बिभ्रदागहि विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसे अस्मिन्महत्यर्नवेन्दरिक्षे भवा अरे नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमा जलाः नीलग्रीवाशितिकण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्तपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पताम्बरिरक्षय ऐलभृदाय व्युदः ये तेतानि प्रचलन्ति शृकावन्तो निषङ्गिणः एतावन्तश्च भूयागुम् स्वस्य दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसे namo rudrebhyo ye prithivyam ye indarikshe ye divye shamannam vato varshamishavastebhyo dasha prachir dasha dakshina dasha pratishir dasho dishir dasho dvastebhyo namaste no mridayantu deyam drishmo yaschano dveshitam bhojam vedadami trimvakam yajamahe sugandhim pushtivardhanam urvarukamiva bandhanan mrityor mukshiyamamritat yo rudro agnavyo apsuya oshadishu yo rudro vishva uvanadivesha tasmai rudraya namo astu yete sahasramayutam pashamratyo martyaya hantave tan yajnasya mayaya sarvanavayajamahe mrityave swaha mrityave swaha pranaanam grandhirasi rudro ma vishantakaha tenanenaapyayasva namo rudraya vishnave mrityurme pahi tamashtu hiyasvashasu danvayo vishvasya kshayadive sajasya yakshva maheso manasaya rudram namo bhirdevam asuranduvasya ayam me hasto bhagavan ayam me bhagavattaraha ayam me vishvabhesha joyagum shiva vimarshanaha om shanti 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 om agra vishto sajosha seva vardhanto vangiraha dhyumnairvaje bhiragatam vajascha me prasavascha me prayatischa me prasitischa me dhetischa me kratuscha me swarascha me slokascha me shravascha me shrutischa me jyotischa me suvascha me pranascha me panascha me vyanascha me suscha me chittam cha ma aditam cha me vaccha me manas cha me chakshuscha me shrotram cha me drakshascha me balam cha ma ojascha me sahascha ma ayoscha me jaracha ma atmacha me tanoscha me sharmacha me varmacha me ganicha me sthanicha me parogamshicha me shariranicha me jaishtyam cha ma adhipatyam cha me manyoscha me bhamascha me mascha me mbhascha me jema cha me mahima cha me varima cha me prathima cha me vashma cha me draguya cha me vriddham cha me vriddhischa me satyam cha me shraddha cha me jagaccha me dhanam cha me vasascha me tveshascha me kreeda cha me modascha me jatam cha me janishyamanam cha me soktam cha me sukrutam cha me vittam cha me vedyam cha me bhutam cha me bhavishyat cha me sugam cha me supatam cha marudham cha marudhyascha me kruptam cha me kruptischa me matischa me sumatischa me shatam cha me mayascha me priyam cha me no kamascha me kamascha me saumanasascha me bhadram cha me shreyascha me
वस्यश्च मे यशश्च मे भागश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संवेक्ष मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीलम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे शोषा च मे सुदिनम् च मे ओच मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सत्यश्च मे सवेतिश्च मे कृतिश्च मे वृष्टिश्च मे जैत्रम् च म औदित्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे भौ च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मेनम् च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुग्धाश्च मे खल्वाश्च मे गोधूमाश्च मे मधुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे श्रीगताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरोधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे ऋषश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे दिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे
मरुत्वतीयाश्च मे
माहेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्यो जनश्च मे यद्मश्च मे बर्हिश्च मे वेदिश्च मे दृष्ट्याश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृच्च म आदवनीयश्च म आग्रेद्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे ववृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्दन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे नित्यवाच्च मे दित्यौहि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्टवाच्च मे पष्टौहि च मवुक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयु यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् पानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षु यज्ञेन कल्पताग्श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसदिश्च मे त्रयोविगुंसदिश्च मे पञ्चविगुंसदिश्च मे सप्तविगुंसदिश्च मे नवविगुंसदिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसदिश्च मे चतुर्विगुंसदिश्च मेऽष्टाविगुंसदिश्च मे द्वात्रिगुंसच्च मे षत्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे अष्टाचत्वारिगुंसच्च मे वाजश्च प्रसवश्च भिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्तेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडारे बहुर्मरो यज्ञनिर्बृहस्पतिरुक्ता मदानि सगुंसि षद्विश्वे देवासोऽष्टवाच पृथिविवातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै इतरो नु मदन्तु
ॐ शान्ति शान्ति शान्तिः ॐ
अत्रिणात्वा कृमे हन्मे कर्णेन जमदग्निना विश्वा वसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अतो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमह्यमस्य जम्भयो आददामि तथा हि तत् खन्फन्नसि ॐ
शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावह ताम् मावह जातवेदो लक्ष्मीमरपगामिनीम् यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वान् रथमद्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपत्वये श्रीर्मा देवीर्दुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपत्वये श्रियम् चन्द्राम् प्रभासाम् यशसाम् ज्वलन्तीम् श्रियम् लोके देवदुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोत बिल्वः तस्य फलानि तपसानुदन्तु मायान्तराया च बाह्या अलक्ष्मीः उपैतु माम् देवसकः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् दधातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वानिर्नुदमे गृहात् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्टाम् करीषिणीम् ईश्वरीगुम् सर्वभूतानाम् तामिहोपक्त्वये श्रियम् मनसः काममाकृतिम् वाचः सत्यमसीमहे पशूनाम् रूपमन्नस्य मयि श्री श्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तु स्निग्धानि चिक्ले तव समे गृहे निच देवे मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावह आर्द्राम् यत्करिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् शौर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावह मावह जातवेदो लक्ष्मीमरपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वा विन्देयम् पुरुषानहम्
యశుచి ప్రయతో భూత్వా యుహుయారాజ్యమన్వహం శ్రియం పంచదశచ్చం చ శ్రీకామః సతతం జపేత్. పద్మాననే పద్మభూరు పద్మాక్షే పద్మసంభవే తం మా భజస్వ పద్మాక్షి యేన సౌఖ్యం లభామ్యహం. అశ్వదాయే గోదాయే ధనదాయే మహాధనే ధనం మే జుషతాం దేవి సర్వకామాస్య దేహి మే. పుత్ర పౌత్ర ధనం ధాన్యం అస్త్యశ్వాది గవేరథం ప్రజానాం భవసి మాతా ఆయుష్మంతం కరోతు మాం. ధనమగ్నిర్ధనం వాయుర్ధనం సూర్యో ధనం వసుః. ధనమింద్రో బృహస్పతిర్వరుణం ధనమశ్నుతే. వైరతే యసోమం పిబ సోమం పిబతు వృత్రః. సోమం ధనస్య సోమినో మహ్యం దధాతు సోమినః. న క్రోధో న చ మాత్సర్యం న లోభో నాశుభామతిః. భవంతి కృత పుణ్యానాం భక్తానాం శ్రేష్ఠోక్తం చ మే స్వదా. వర్షంతు తే విభావరి నివో అభ్రస్య విద్యుతః. రోహంతు సర్వబీజాన్యవబ్రహ్మద్విషోజహి. పద్మప్రియే పద్మిని పద్మహస్తే పద్మాలయే పద్మదళాయతాక్షే. విశ్వప్రియే విష్ణుమనోనుకూలే తత్పాదపద్మం మయి సన్నిధస్వ. యాసా పద్మాసనస్తా విపులకటితటి పద్మపత్రాయతాక్షే. గంభీరావర్ధనా విస్తరవరణమితా శుభ్రవస్త్రోత్తరీయా. లక్ష్మీర్దివ్యైర్గజేంద్రైర్మణిఘనఖచితైర్స్నాపితా హేమకుంభైః. నిత్యం సా పద్మహస్తా మమ వసతు గృహే సర్వమాంగల్యయుక్తా. లక్ష్మీం క్షీరసముద్రరాజతనయాం శ్రీరంగధామేశ్వరీం. నాసీభూత సమస్తదేవవనితాం లోకైకదీపాంకురాం. శ్రీమన్మంద్రకటాక్షలబ్ధ విభవ బ్రహ్మేంద్ర గంగాధరాం. త్వాం త్రైలోక్య కుటుంబినీం సరసిజాం వందే ముకుంద ప్రియాం. సిద్ధలక్ష్మీర్మోక్షలక్ష్మీ జయలక్ష్మీ సరస్వతీ. శ్రీలక్ష్మీర్వరలక్ష్మీ సప్రసన్నా మమ సర్వదా. వరాంకుశౌపాశమభేతి ముద్రాం కరైర్వహంతీం కమలాసనస్తాం. వాళార్కకోటిప్రతిభాం త్రినేత్రాం వజేహమాంబాం జగదీశ్వరీం త్వాం. సర్వమంగళమాంగళ్యే శివే సర్వార్థసాధికే శరణ్యే త్ర్యంబకే దేవే నారాయణి నమోస్తుతే. మహాలక్ష్మీ చ విద్మహే విష్ణుపత్నీ చ ధీమహే తన్నో లక్ష్మీ ప్రచోదయాత్. ఓం శాంతి శాంతి శాంతిః. ఈశాన సర్వవిద్యానామీశ్వర సర్వభూతానాం బ్రహ్మాధిపతిర్బ్రహ్మణోధిపతిర్బ్రహ్మా శివో మే అస్తు సదాశివో. తద్విష్ణోర్పరమం పదగుం సదా పశ్యంతి సూరయః. దివేవ చక్షురాగతం తద్విప్రాసో విపన్యవో జాగ్రవాగం సత్సమిందతే విష్ణోర్యత్పరమం పదం. నారాయణాయ విద్మహే వాసుదేవాయ ధీమహే తన్నో విష్ణు ప్రచోదయాత్. తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహే తన్నో రుద్ర ప్రచోదయాత్. ఓం సాయేశ్వరాయ విద్మహే సత్యదేవాయ ధీమహే తన్నః సర్వ ప్రచోదయాత్. హంసహంసాయ విద్మహే పరమహంసాయ ధీమహే తన్నో హంస ప్రచోదయాత్. న కర్మణా న ప్రజయా ధనేన త్యాగేనైకే అమృతత్వమానశుః. పరేణ నాకం నిహితం గుహాయాం విభ్రాజదేతత్యజయో విశంతే. వేదాంత విజ్ఞాన సునిశ్చితార్థ సన్యాస యోగాత్యథయ శుద్ధ సత్వాః. తే బ్రహ్మలోకే తు పరాంతకాలే పరామృతాత్ పరిముచ్యంతి సర్వే. నగ్నం విపాపం పరమేశ్వభూతం యత్పుండరీకం పురమజ్జ సగ్రస్తం. తత్రాపి నగ్నం గగనం విశోకస్తస్మిన్ యదంతస్తదుపాసితవ్యం. యో వేదాలో స్వర ప్రోక్తో వేదాంతే చ ప్రతిష్ఠితః తస్య ప్రకృతిరేనస్య యః పరః స మహేశ్వరః. స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేన మహిమహేషాః. గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. ఓం శాంతి శాంతి శాంతి.